नमस्कारः अद्य वैयाकरण भूषण सारस्य धात्वर्थ प्रकरणे चतुर्थः पाठः जनवरी मासस्य सप्तदशः दिनांकः येनाक्षर समाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् श्रीलक्ष्मीरमणं नौमि गौरीरमणरूपिणं स्फोटरूपं यतः सर्वं जगदेतद्विवर्तते। एतावता वैयाकरणभूषणसारग्रन्थे ग्रन्थस्य मङ्गलश्लोकाः तेषामर्थश्च अधीतः। पञ्चश्लोकाः भूषणसारस्य ग्रन्थस्य आदौ विद्यन्ते। श्रीलक्ष्मीरमणं नौमि इति प्रथमश्लोके शिवाभिन्नं विष्णुं नमस्करोति कौण्डभट्टः। स्फोटरूपं तत्रैव तस्य स्फोटः इति शब्दब्रह्मणः वैयाकरणमते यः परमः सिद्धान्तः शब्दब्रह्म इति तस्य प्रतिपादनं करोति। अग्रेपि इष्टदेवता नमस्कारः ग्रन्थस्य प्रतिज्ञा गौतम जैमिनीय वचन व्याख्यातृभिर्दूषितान् सिद्धान्तान् उपपत्तिभिः प्रकटये तेषां वचो दूषये इति कौण्डभट्टस्य प्रतिज्ञा। मीमांसाशास्त्रे न्यायशास्त्रे च ये ग्रन्थकर्तारः अथवा व्याख्यातारः तैः वैयाकरणानां सिद्धान्ताः दूषिताः, अतः अहं तान् सिद्धान्तान् साधकप्रमाणैः स्पष्टीकृत्य तेषां वचनानि दूषये अर्थात् तेषां वचनानि अयुक्तानि इति प्रतिपादयामि इति तस्य प्रतिज्ञा। एते सर्वेपि श्लोकाः भूषणसारस्य मङ्गलश्लोकाः। ततः भूषणसारः भट्टोजीदीक्षितानां वैयाकरणमतोन्मज्जनकारिकाणां व्याख्यारूपः। तत्र वैयाकरणमतोन्मज्जनकारिकासु प्रथमा कारिका अस्ति फणिभाषितभाष्याब्धेः शब्दकौस्तुभौद्धृतः तत्त्वनिर्णीत एवार्थः संक्षेपेणेह कथ्यते। भाष्यमाधृत्य भट्टोजीदीक्षितेन शब्दकौस्तुभः इत्याख्यः वृत्तिग्रन्थः लिखितः। तत्र ये अर्थविषयकाः सिद्धान्ताः प्रतिपादिताः ते एव संक्षेपेण एतासु कारिकासु उच्यन्ते इति भट्टोजीदीक्षितानां कथनम्। ततः धात्वर्थप्रकरणम् आरब्धम्। तत्र धात्वर्थनिर्णये ग्रन्थस्य अध्ययनात् पूर्वं भूमिकारूपेण केचन अंशाः ज्ञातव्याः। वस्तुतः अस्मिन् ग्रन्थे दर्शनत्रयस्य वादाः विमृष्टाः सन्ति। धातोः अर्थस्य विषये, तिङ्प्रत्ययानां च अर्थस्य विषये, मीमांसकैः किमुच्यते, नैयायिकैः किमुच्यते, वैयाकरणैश्च किमुच्यते इति विमर्शः अस्मिन् ग्रन्थे अस्ति। अतः एतद्दर्शनत्रयरीत्या सिद्धान्तः कः इति आदौ ज्ञात्वा अनन्तरं कथं वादविवादः प्रचलति इति द्रष्टुं शक्नुमः। तत्र धात्वर्थनिर्णयविषये वैयाकरणानां सिद्धान्तः एषः। आदौ धात्वर्थः, धातोः कः अर्थः? सर्वेषां धातूनाम् अर्थद्वयम्, फलं व्यापारश्च। यथा पच् इति धातुः, पच् धातोः विक्लित्तिः फलम्, तदनुकूलः व्यापारः, अधिश्रयणं, चुल्याः ज्वालनम्, उदकसेचनम् इत्यादि व्यापारः। एवं गच्छति, गम् इति यत्र धातुः, तत्र उत्तरदेशसंयोगः फलं, तदनुकूलः पादचलनादिः व्यापारः। एवं सर्वेषां धातूनाम् अर्थद्वयं भवति, फलं व्यापारः। अर्थात् धातुः फलस्य वाचकः तथैव व्यापारस्यापि वाचकः। धातोः परं एतदेव उक्तं, पच् धातोः विक्लित्तिः फलं, तदनुकूलः व्यापारः। एवं गमधातोः उत्तरदेशसंयोगः फलं, तदनुकूलः व्यापारः। तिङ् प्रत्ययः धातोः यः भवति, तस्य चत्वारः अर्थाः सम्भवन्ति कर्तृकर्मसङ्ख्याकालाः। कर्तरिप्रयोगे कर्ता, कर्मणि प्रयोगे कर्म, तथैव संख्या कर्तुः कर्मणो वा संख्या कालः भूत भविष्यद् वर्तमान इत्येतत् सर्वं तिङ् प्रत्ययेन ज्ञायते किञ्च शब्दबोधः शब्दैः अर्थस्य अवबोधनम् अथवा अवगमनं शब्दबोधः इत्युच्यते वैयाकरणानां मते व्यापारमुख्यविशेषकः शब्दबोधः इदानीम् अत्र षट् अर्थाः सन्ति एकं तिङन्तं पचति इति यदा तिङन्तं स्वीक्रियते तत्र धातुभागेन फलं व्यापारः इति अर्थद्वयं तिङ्भागेन कर्तृकर्मसङ्ख्याकालाः इत्येवम् अर्थाः सर्वे बोध्यन्ते एतेषु सर्वेषु अर्थेषु व्यापारः प्रधानं भवति अन्येषां सर्वेषाम् अपि अर्थानां साक्षात् परम्परया वा व्यापारे अन्वयः भवति फलं कर्ता कालश्च साक्षात् व्यापारे विशेषणम् अर्थात् कालः यदि वर्तमानकालः तर्हि वर्तमानकालिकः व्यापारः यदि चैत्रः कर्ता तर्हि चैत्राश्रयः व्यापारः यदि विक्लित्तिः फलं तर्हि विक्लित्यनुकूलः व्यापारः इत्येवं फलं कर्ता कालः इत्येते त्रयः साक्षात् व्यापारे अन्वयं प्राप्नुवन्ति विशेषणत्वेन संख्या कर्तरि अन्वेति अथवा कर्मणि प्रयोगे कर्मणि अन्वेति पचति इत्यत्र एकवचनं तत्र कर्तुः एकवचनम् इति गम्यते एवं पचामः इति यदि प्रयोगः तर्हि प्रत्यये बहुवचनप्रत्ययः अतः कर्तुः बहुवचनं तत्र गम्यते कर्म फले अन्वेति यथा तण्डुलान् पचति इति यदि प्रयोगः तर्हि तण्डुलानां विक्लित्तौ अन्वयः यतोहि तण्डुलेषु एव विक्लित्तिः दृश्यते फलाश्रयः कर्म द डेफिनेशन् आफ् कर्म इस् दट् वाट् इस् कर्म दट् विच् होल्ड्स् द फल फलाश्रयः एव कर्म अतः कर्मणः सर्वदा फले अन्वयः अतः शाब्दबोधः कथं भवति चैत्रः पचति इत्यस्ति कथं शाब्दबोधः किं प्रधानम् कः अर्थः प्रधानम् व्यापारः प्रधानम् सः व्यापारः कीदृशः फलस्य व्यापारे अन्वयः अतः विक्लित्यनुकूलः व्यापारः अनन्तरम् कालस्य आमां वदतु वर्तमानकालिकः व्यापारः चैत्राश्रयः व्यापारः स च चैत्रः एकत्वसङ्ख्यावच्छिन्नः अतः एकत्वसङ्ख्यावच्छिन्नचैत्राश्रयः वर्तमानकालिकः विक्लित्यनुकूलः व्यापारः इति शाब्दबोधः चैत्रः तण्डुलान् अपाक्षीत् इत्यस्ति तत्र कथम् विक्लित्यनुकूलः व्यापारः भूतकालिकः व्यापारः बहुत्वावच्छिन्न तण्डुलाश्रय विक्लित्यनुकूलः व्यापारः एकत्वसङ्ख्यावच्छिन्नचैत्राश्रयः भूतकालिकः बहुत्वसङ्ख्यावच्छिन्नतण्डुलाश्रय विक्लित्यनुकूलः तण्डुलाश्रयः व्यापारः न भवति यतोहि व्यापारः तण्डुले नास्ति तण्डुले तु विक्लित्तिरेव अस्ति अतः बहुत्वसङ्ख्यावच्छिन्नतण्डुलाश्रयाया विक्लित्तिः तदनुकूलः व्यापारः इति एषः वैयाकरणमते शब्दबोधः अधुना मीमांसकानां दृष्ट्या कः सिद्धान्तः मीमांसकाः किं वदन्ति इति पश्यामः मीमांसकानां मते फलमात्रं धात्वर्थः यथा पच् इति धातुरस्ति चेत् विक्लित्तिः एव धात्वर्थः गम् इति यत्र धातुः तत्र उत्तरदेशसंयोगः एव धात्वर्थः धातुः केवलं फलं बोधयति इति मीमांसकानां सिद्धान्तः तेषां मते व्यापारः अस्ति किल, व्यापारस्य भावना इति नाम. व्यापारः भावना उभयं समानं, किन्तु मीमांसकाः कुत्रापि व्यापारः इति न वदन्ति, सर्वत्र भावना इत्येव वदन्ति. आर्थी भावना, शाब्दी भावना इति तेषां सिद्धान्तस्य मुख्यः अंशः. अतः भावना इत्युक्ते व्यापारः आख्यातस्य अर्थः. आख्यातः नाम तिङ्प्रत्ययः, फलं धातुना बोध्यते, तिङ्प्रत्ययेन तु भावना बोध्यते इति तेषां मतम्. फलव्यापारयोः सम्बन्धस्तु समानः. फलं व्यापारजन्यं, पाकस्य यः व्यापारः क्रियते, अधिश्रयणम्, उदकसेचनमित्यादि, तेन विक्लित्तिः जायते. अतः फलं व्यापारेण जायते, व्यापारः फलस्य जनकः. जन्यजनकभावः सम्बन्धः समानः. अतः धात्वर्थस्य फलस्य आख्यातार्थे भावनायाम् अन्वयः. अस्माकं मते अपि फलस्य व्यापारे एव अन्वयः, किन्तु धात्वर्थफलस्य धात्वर्थे व्यापारे अन्वयः इति वैयाकरणसिद्धान्तः. धात्वर्थफलस्य तिङर्थे भावनायाम् अन्वयः इति मीमांसकानां सिद्धान्तः. अतः पचति इत्यस्य कः अर्थः? विक्लित्यनुकूला भावना इत्येव अर्थः. वैयाकरणमते कः अर्थः? विक्लित्यनुकूलः एकत्वसङ्ख्यावच्छिन्नकर्ताश्रयः व्यापारः, यतोहि कर्ता बोध्यते, तिङ्प्रत्ययेन कर्ता कालः. अत्रापि सङ्ख्या कालश्च अस्ति, किन्तु कर्तुः प्रतीतिः नास्ति, साक्षात् कर्तुः प्रतीतिः नास्ति. साक्षात् पदेन विक्लित्यनुकूला भावना इत्येव गम्यते. कर्ता तु अस्ति, कथं लभ्यते इति चेत् आक्षेपात् लक्षणया वा कर्तुः प्रतीतिः. आक्षेपः नाम यदि किमपि वस्तु विद्यते तर्हि तस्य कर्ता कश्चिदस्ति इति अनुमीयते. यत्र धूमः अस्ति तत्र अग्निः अस्ति इति वयं जानीमः. तथैव यत्र यः कोऽपि व्यापारः अथवा भावना अस्ति तत्र कर्तुः अस्तित्वं स्यादेव, कर्तारं विना भावना न सम्भवति. इत्यतः आक्षेपात् कर्ता अस्ति इति वयं जानीमः. अथवा लक्षण नाम शक्यसम्बन्धः लक्षण. साक्षात् शब्देन यः अर्थः प्रतीयते सः शक्यार्थः. यथा इदानीं गङ्गायां घोषः इत्यस्ति, गङ्गा शब्दः, शब्दात् कः अर्थः प्रतीयते? प्रवाहः, नदी इत्यर्थः एव गम्यते, सः शक्यार्थः. किन्तु शक्यार्थे घोषस्य सत्ता न शक्यते, न सम्भवति इत्यतः तत्सम्बन्धः तीरः, गङ्गातीरे घोषः इत्यर्थः अस्माभिः कल्प्यते, सा लक्षण. एवमत्रापि साक्षात् तिङ्प्रत्ययेन भावना एव उच्यते, किन्तु कर्तारं विना भावनायाः सम्भवः नास्ति इत्यतः भावनासम्बन्धे कर्तरि लक्षण. अतः काक्षेपात् अथवा लक्षणया कर्तुः प्रतीतिः भवति इति मीमांसकाः. वैयाकरणास्तु साक्षात् तिङ्प्रत्ययेन कर्ता बोध्यते इति, मीमांसकाः तिङ्प्रत्ययेन भावनैव बोध्यते, आक्षेपा लक्षणया वा कर्तुः प्रतीतिः. कालः संख्या एतयोर्विषये कुत्रापि मतभेदः नास्ति, यतोहि सर्वेषां मते कालः प्रत्ययेनैव ज्ञायते, लकारः एव विहितः अतः प्रत्ययेनैव ज्ञायते. संख्या अपि प्रत्ययेनैव ज्ञायते, अतः तत्र कस्यापि मतभेदः नास्ति. अन्येषु विषयेषु एव मतभेदः. भावना मुख्यविशेषकः शब्दबोधः, यथा वैयाकरणाः व्यापारमुख्यविशेषकः शब्दबोधः इति वदन्ति, तथैव मीमांसकमते भावना मुख्यविशेषकः शब्दबोधः. तत्तु समानम्. संख्या कर्तरिविशेषणम् यथा पूर्वं, परस्परसम्बन्धः समानः यथा वैयाकरणानां तथा मीमांसकानां. संख्या कर्तरि, कर्ता आक्षेपलभ्यः इति विशेषः. कर्ता आख्यातार्थे भावनायां विशेषणम्. फलं कालश्च भावनायां विशेषणम्. अतः सम्बन्धः एवं दर्शयितुं शक्यः. तिङन्ते भागद्वयं, धातुः अस्ति, तिङ् प्रत्ययः अथवा आख्यातः अस्ति. तत्र धातोः एक एव अर्थः, फलम् एव धातुना बोध्यते. आख्यातप्रत्ययेन तु भावना, संख्या, कालः इति त्रयः अर्थाः साक्षात् उच्यन्ते वाचकाः. कर्ता आक्षेपात् लक्षणया वा बोध्यते, न तु केनचित् उच्यते. एवम् अर्थेषु सत्सु एतेषु भावना प्रधानम्. मीमांसकमते भावनायाः प्राधान्यम्. फलं साक्षात् भावनायाम् अन्वेति. फलानुकूला भावना, विक्लित्यनुकूला भावना अथवा विक्लित्तिजनिका भावना. कर्ता अपि भावनायाम् अन्वेति. चैत्राश्रयिका भावना इत्यादिरीत्या. कालः संख्या तु कर्तरि अन्वेति. एकत्वसंख्यावच्छिन्न चैत्राश्रयिका भावना. कालः साक्षात् भावनायाम् अन्वेति. वर्तमानकालिका भावना इति. एकं क्षणम् आगच्छामि. एवं मीमांसकमते फलमात्रं धात्वर्थः, भावना आख्यातस्य अर्थः, भावना संख्या कालः इति एते त्रयः तिङ् प्रत्ययस्य अथवा आख्यातस्य अर्थाः. तत्र भावना प्रधानम्, आख्यातार्थस्य भावनायाः प्राधान्यम्. फलं कर्ता कालश्च साक्षात् भावनायाम् अन्वयं प्राप्नुवन्ति. संख्या तु कर्तरि अन्वेति. तर्हि कथं भवति शब्दबोधः मीमांसकानां मते? चैत्रः पचति, कः अर्थः? किं प्रधानम्? किं प्रधानं, कः अर्थः प्रधानः? भावना. कीदृशी भावना? विक्लित्यनुकूला अथवा विक्लित्तिजनिका भावना. कः कालः? वर्तमानकालिकी भावना.
एकत्र चैत्राश्रय्या
ఏకత్వ సంఖ్యావచ్ఛిన్న చైత్రాశ్రయిక విక్లిత్యనుకూల వర్తమానకాలికి భావన. ఏకత్వ సంఖ్యావచ్ఛిన్న చైత్రాశ్రయిక విక్లిత్యనుకూల అథవా విక్లిత్తిజనిక సమాన వర్తమానకాలికి భావన. వస్తుతః శాబ్దబోధే అంతే యః శాబ్దబోధః తస్య వైయాకరణమతే మీమాంసకమతే చ భేదః నాస్తి. తత్రాపి కిముచ్యతే ఏకత్వ సంఖ్యావచ్ఛిన్న చైత్రాశ్రయః విక్లిత్యనుకూలః వర్తమానకాలికః వ్యాపారః ఇత్యుచ్యతే. వ్యాపారస్య స్థానే యది భావన ఇతి వదామః తర్హి శాబ్దబోధః సమానః, కింతు కస్మాత్ ప్రతీయతే సః అర్థః ఇత్యత్ర భేదః. అస్మన్మతే వ్యాపారః ధాత్వర్థః, కర్తా తింగర్థః. ఏతేషాం మతే భావన తింగర్థః, ఫలమాత్రం ధాత్వర్థః, కర్తా ఆక్షేపలభ్యః లక్షణయా వా జ్ఞాయతే. అయం మీమాంసకానాం సిద్ధాంతః. అగ్రే నైయాయికానాం సిద్ధాంతః కించిత్ జ్ఞాయతే. కచ్చిత్ సందేహ అస్తి చేత్ సో ఫర్ పీపుల్ హు ఆర్ హియర్ ఫర్ ద ఫస్ట్ టైమ్ ఫర్ దిస్ క్లాస్, మేబీ ఐ డోంట్ నో ఇఫ్ యూ హ్యాడ్ ద టైమ్ టు గో త్రూ ద ఎర్లియర్ క్లాసెస్. వీ డిడ్ త్రీ క్లాసెస్ బిఫోర్ దిస్. సో భూషణ సారా ఈస్ అ అడ్వాన్స్డ్ టెక్స్ట్ ఆఫ్ grammar. Okay, it talks, it's a very different text of grammar in that it does not talk about what we normally know as grammar, say what is the sutra or what is the prakriya, what is the, how do we derive a word. So it is not at all discussed here, very minimally. Okay, I mean even the mention of sutras is quite minimal. So when you go through the first few classes, you will know that there are two series of two kinds of texts in Vyakarana. So the normal text that we have studied so far, whether it is Ashtadhyayi or Kashika, Siddhanta Kaumudi, Laghu Kaumudi, all those focus on the derivation of words. So what are the different kinds of words, what are the prakriti, pratyaya, and so on. Okay, but there is another series of text, of course with the Mahabhashya, but mainly starting with the Vakyapadiya. So these are called the Darshanika texts or the Arthika texts, which focus on the meaning part of it. That is, what is a word? How is meaning derived from a word? What is the relation between word and its meaning? How do we understand, whenever there is a sentence, how do we understand it? What is the understanding we derive from it? What is the process through which we understand it? So these are all the issues which are discussed in the Darshanika texts or the semantic texts. These are discussed not only in grammar but also in Mimamsa and Nyaya Shastra. Okay. So Vyakarana Bhushana Sara is one of the principal texts of this kind which are studied today in grammar. Okay. So it was composed by Kaunda Bhatta, who was the son of the brother of Bhattoji Dikshita. It is one of the major texts in this type today. So in this he takes up all the different siddhantas and finally establishes what is the Vyakarana Siddhanta. Okay. So we have not yet started with the text proper of Bhushanasara. We are just doing some introductory stuff to understand what is it that the different darshanas maintain with regarding to dhatu. Since the prakarana that we are studying is called the dhatvartha prakarana, it discusses mainly the meaning of a dhatu and the thing. So the thinganta. So dhatu and thing, and how do we derive meaning from it. So we are now discussing what is the siddhanta of the different schools of thought regarding this. So we did the Vyakarana Siddhanta and we did the Mimamsakas. So we are also going to deal with the Naiyayika Siddhanta. So those of you who have missed the earlier classes, you can just go through them. They are all available in the portal already. So then you will have a better idea of what I am talking about right now, maybe. So there are also in the first ಗ್ರಂಥಾಧ್ಯಯನೆ ಉಪಯೋಗಿನಿ ಸಾಮಗ್ರಿ ಯು ವಿಲ್ ಫೈಂಡ್ ತ್ರೀ ಫೈಲ್ಸ್. ಒನ್ ಇಸ್ ದ ಜಸ್ಟ್ ದ ಕಾರಿಕಾಸ್ ಆಫ್ ದ ಟೆಕ್ಸ್ಟ್, ಓಕೆ, ಟು ದ ಒರಿಜಿನಲ್ ಟೆಕ್ಸ್ಟ್ ಕಾಲ್ಡ್ ದ ಮತೋನ್ಮಜ್ಜನ. ಸೊ ದೀಸ್ ವಿಲ್ ಬಿ ರೀಡಿಂಗ್ ಎವ್ರಿ ಡೇ ಆಸ್ ಅ ಪಾರಾಯಣಂ. ಸೊ ದೀಸ್ ಆರ್ ದ ಥಿಂಗ್ಸ್ ವಿಚ್ ಆರ್ ಟು ಬಿ ನೋನ್ ಫಾರ್ ದಿಸ್ ಪ್ರಕರಣ. ಸೊ ದ ಸೆಕೆಂಡ್ ಒನ್ ಗಿವ್ಸ್ ಓನ್ಲಿ ದ ಮೂಲ ಆಫ್ ಭೂಷಣ ಸಾರ, ದ ಒರಿಜಿನಲ್ ಟೆಕ್ಸ್ಟ್ ಓನ್ಲಿ. ದ ಥರ್ಡ್ ಫೈಲ್ ಇಟ್ ಗಿವ್ಸ್ ಡೀಟೇಲ್ಸ್ ಆಫ್ ದ ಪಬ್ಲಿಷ್ಡ್ ಎಡಿಷನ್ಸ್ ಆಫ್ ಭೂಷಣ ಸಾರ, ಇನ್ ಕೇಸ್ ಯು ಆರ್ ಇಂಟ್ರೆಸ್ಟೆಡ್ ಇನ್ ಹ್ಯಾವಿಂಗ್ ಅ ಕಾಪಿ. ದೇರ್ ಆರ್ ಆಲ್ಸೋ ಸೆವರಲ್ ಲಿಂಕ್ಸ್ ಟು ಟೆಕ್ಸ್ಟ್ ವಿಚ್ ಆರ್ ಅವೈಲೇಬಲ್ ಆನ್ಲೈನ್, ಓಕೆ, ಫಾರ್ ಭೂಷಣ ಸಾರ, ಐ ಮೀನ್ ವಿತ್ ಸ್ಪೆಷಲ್ ವ್ಯಾಖ್ಯಾನಸ್. ಸೊ ದೀಸ್ ಆರ್ ಆಲ್ ಓಲ್ಡ್ ಪಬ್ಲಿಕೇಶನ್ಸ್ ವಿಚ್ ಆರ್ ಕರೆಂಟ್ಲಿ ಔಟ್ ಆಫ್ ಪ್ರಿಂಟ್, ಬಟ್ ದೀಸ್ ಆರ್ ಅವೈಲೇಬಲ್ ಫಾರ್ ಫ್ರೀ ಡೌನ್ಲೋಡ್ ಫ್ರಮ್ ಮೇನ್ಲಿ ಫ್ರಮ್ archive.org ಅಂಡ್ ಅದರ್ ಪ್ಲೇಸಸ್. ಸೊ ಯು ಕ್ಯಾನ್ ಯೂಸ್ ಎನಿ ಆಫ್ ದೀಸ್ ಟು ಡೌನ್ಲೋಡ್ ದ ಟೆಕ್ಸ್ಟ್ ಆಫ್ ಭೂಷಣ ಸಾರ. ಇದಾನೀ ಅಗ್ರೆ ಗಚ್ಚಾಮಃ. ವೈಯಾಕರಣಾನಾಂ ಮೀಮಾಂಸಕಾನಾಂ ಚ ಸಿದ್ಧಾಂತಃ ಜ್ಞಾತಃ. ವೈಯಾಕರಣಮತೆ ಫಲಂ ವ್ಯಾಪಾರಶ್ಚ ಧಾತ್ವರ್ಥಃ, ಕರ್ತೃಕರ್ಮ ಸಂಖ್ಯಾಕಾಲಾಃ ತಿಂಗರ್ಥಃ, ವ್ಯಾಪಾರ ಮುಖ್ಯ ವಿಶೇಷಕಃ ಶಬ್ದಬೋಧಃ. ಮೀಮಾಂಸಕಾನಾಂ ಮತೆ ಫಲಮಾತ್ರಂ ಧಾತ್ವರ್ಥಃ, ಭಾವನಾ ಆಖ್ಯಾತಾರ್ಥಃ, ಭಾವನಾ ಸಂಖ್ಯಾಕಾಲಶ್ಚ ಆಖ್ಯಾತಾರ್ಥಃ, ಕರ್ತಾ ಆಕ್ಷೇಪಾತ್ ಲಕ್ಷಣಯಾ ವಾ ಲಭ್ಯತೆ, ಭಾವನಾ ಮುಖ್ಯ ವಿಶೇಷ್ಯಕಃ ಶಬ್ದಬೋಧಃ. ನೈಯಾಯಿಕಾನಾಂ ಮತಮಿದಾನೀಂ ಪಶ್ಯಾಮಃ. ನೈಯಾಯಿಕಾನಾಂ ಮತೆ ಫಲಂ ವ್ಯಾಪಾರಶ್ಚ ಧಾತ್ವರ್ಥಃ, ಯಥಾ ವೈಯಾಕರಣಾನಾಂ ತಥಾ ನೈಯಾಯಿಕಾನಾಂ ಅಪಿ. ಫಲಂ ವ್ಯಾಪಾರಃ ಇತಿ ಉಭಯಂ ಧಾತ್ವರ್ಥಃ ಇತಿ ನವ್ಯನೈಯಾಯಿಕಾಃ. ವಸ್ತುತಃ ಪ್ರಾಚೀನ ನೈಯಾಯಿಕಾಸ್ತು ವ್ಯಾಪಾರ ಮಾತ್ರಂ ಧಾತ್ವರ್ಥಃ, ಫಲಂ ದ್ವಿತೀಯ ವಿಭಕ್ತ್ಯರ್ಥಃ ಇತಿ ವದಂತಿ. ನೈಯಾಯಿಕಾನಾಂ ಮಧ್ಯೆಪಿ ಪ್ರಾಚೀನಾಃ ನವೀನಾಃ ಇತಿ ಗಣದ್ವಯಂ ಅಸ್ತಿ. ತತ್ರ ಪ್ರಾಚೀನ ನೈಯಾಯಿಕಾನಾಂ ಏತನ್ಮತಂ, ಕಿಂತು ನವ್ಯ ನೈಯಾಯಿಕಾನಾಂ ಮತೆ ಫಲಂ ವ್ಯಾಪಾರಶ್ಚ ಧಾತ್ವರ್ಥಃ ಇತಿ. ಆಖ್ಯಾತಾರ್ಥಃ ಕೃತಿಃ. ಸೊ ದೇ ಹ್ಯಾವ್ ಅನ್ ಅಡಿಷನಲ್ ಕಾಂಪೊನೆಂಟ್ ಕಾಲ್ಡ್ ಕೃತಿ. ಕೃತಿಃ ವ್ಯಾಪಾರಃ ಇತ್ಯನಯೋಃ ಭೇದಃ ತೈಃ ಪ್ರದರ್ಶ್ಯತೆ. ಚೇತನಾನಿಷ್ಠಃ ಅರ್ಥಾತ್ ಆತ್ಮನಿಷ್ಠಃ ವ್ಯಾಪಾರಃ ಕೃತಿಃ ಅಥವಾ ಕರ್ತೃತ್ವಂ. ಶರೀರನಿಷ್ಠಃ ವ್ಯಾಪಾರಃ ಇತ್ಯೇವ ಭೇದಃ. ದಟ್ ವಿಚ್ ವಿ ಸೀ ಫಿಸಿಕಲ್ ಮೂವ್ಮೆಂಟ್ ಆರ್ ಆಕ್ಷನ್ ಇನ್ ದ ಬಾಡಿ ಇಸ್ ಕಾಲ್ಡ್ ವ್ಯಾಪಾರ. ವೆರಸ್ ಇನ್ ದ ಬಾಡಿ ಆರ್ ಎನಿ ಲಿವಿಂಗ್ ಬಾಡಿ, ಶರೀರನಿಷ್ಠ ವ್ಯಾಪಾರ, ಚೇತನಾನಿಷ್ಠ ಅರ್ಥಾತ್ ಆತ್ಮನಿಷ್ಠ ಕೃತಿ. ಸೊ ಕೃತಿ ಇಸ್ ದಟ್ ವಿಚ್ ರಿಸೈಡ್ಸ್ ಇನ್ ದ ಆತ್ಮನ್. ಇಟ್ ಇಸ್ ನಾಟ್ ವಾಟ್ ಯು ಸಿ ಫಿಸಿಕಲ್ ಮೂವ್ಮೆಂಟ್, ಬಟ್ ವಿಥೌಟ್ ವಿಚ್, ವಿಥೌಟ್ ದ ಆತ್ಮನ್ ಯು ವಿಲ್ ನಾಟ್ ಸಿ ವ್ಯಾಪಾರ. ಸೊ ಕೃತಿ ಇಸ್ ಸಮಥಿಂಗ್ ವಿಚ್ ಇಸ್ ಇವನ್ ಇಂಟರ್ನಲ್ ಆರ್ ಮೋರ್ ಸೂಕ್ಷ್ಮ ದನ್ ವ್ಯಾಪಾರ. ಅತ ಆಖ್ಯಾತಾರ್ಥ ಕೃತಿ. ವ್ಯಾಪಾರ ಧಾತುನಾ ಲಭ್ಯತೆ, ಕಿಂತು ಕೃತಿ ಯತೋ ಹಿ ಕರ್ತರಿ ವಿದ್ಯತೆ ಕೃತಿ, ಸಾ ಕೃತಿ ಅಥವಾ ಕರ್ತೃತ್ವ ರೂಪ ಅರ್ಥ ತಿಂಗ್ ಪ್ರತ್ಯಯೇನ ಲಭ್ಯತೆ ಇತಿ ತೇಷಾಂ ಮತಂ. ಕೃತಿ ವೈಯಾಕರಣ ಮತೇವ ಮೀಮಾಂಸಕ ಮತೇವ ಪೃಥಕ್ ನ ಸ್ವೀಕ್ರಿಯತೆ. ಅಸ್ಮನ್ಮತೇ ತು ಸರ್ವೋಪಿ ವ್ಯಾಪಾರ, ಚೇತನಾನಿಷ್ಠ ಶರೀರನಿಷ್ಠ ಸರ್ವೋಪಿ ವ್ಯಾಪಾರ ಇತ್ಯೇವ ಉಚ್ಯತೆ. ಸರ್ವೋಪಿ ಧಾತು ಲಭ್ಯ ಇತ್ಯೇವ, ಕಿಂತು ತೇಷಾಂ ಮತೆ ವ್ಯಾಪಾರ ಕೃತಿ ಇತಿ ಭಿನ್ನತೆಯ ಪ್ರತಿಪಾದ್ಯತೆ. ಅತಃ ಕೃತಿ ಸಂಖ್ಯಾ ಕಾಲಶ್ಚ ಆಖ್ಯಾತಸ್ಯ ತಿಂಗಃ ಅರ್ಥಃ ಇತಿ ತೇಷಾಂ ಮತಂ. ಕರ್ತಾ ಕುತ್ರ ಅಸ್ತಿ, ಕರ್ತಾ ತು ತಿಂಗಂತೇನ ನೈವ ಲಭ್ಯತೆ ಇತಿ ನೈಯಾಯಿಕಾನಾಂ ಮತಂ. ಕರ್ತಾ ತು ಪ್ರಥಮಾಂತ ಪದಾದೇವ ಲಭ್ಯತೆ ಇತಿ ತೇ ವದಂತಿ. ಯಥಾ ರಾಮಃ ಪಠತಿ ಇತ್ಯಸ್ತಿ, ತರ್ಹಿ ಪಠತಿ ಇತ್ಯನೇನ ಕರ್ತಾ ನ ಜ್ಞಾಯತೆ, ಕೇವಲಂ ಕರ್ತೃತ್ವಂ ಅಥವಾ ಕೃತಿರೇವ ಜ್ಞಾಯತೆ. ಕರ್ತಾ ತು ರಾಮಃ ಇತಿ ಪ್ರಥಮಾಂತ ಪದಾದೇವ ಜ್ಞಾಯತೆ ಇತಿ ತೇಷಾಂ ಮತಂ. फलं व्यापारे अन्वेति अनुकूलत्व सम्बन्धः तत्र मतभेदः नास्ति धात्वर्थफलं धात्वर्थे व्यापारे विशेषणत्वेन अन्वेति व्यापारः कृतौ अन्वेति कृतिः अस्ति इत्यतः अत्र व्यापारः मुख्यः न व्यापारः कृतौ अन्वेति मीमांसकमते वैयाकरणमते च व्यापारस्यैव प्राधान्यम् नैयायिकमते व्यापारस्य प्राधान्यम् नास्ति द्वयमपि अस्ति व्यापारः अपि अस्ति कृतिः अपि अस्ति व्यापारः कृतौ विशेषणम् कृतिः कर्तरि विशेषणम् तत्र कर्तुः एव प्राधान्यम् न तु व्यापारस्य व्यापारः कालश्च कृतेः विशेषणम् संख्या कर्तुः विशेषणम् संख्या तु सर्वदा कर्तुरेव विशेषणम् भवति आख्यातार्थकृतिः आश्रयत्वसम्बन्धेन कर्तरि अन्वेति कर्ता प्रथमान्तपदेन ज्ञायते अतः कृतेः कर्तरि अन्वयः कर्ता प्रधानम् एतत् स्मर्तव्यम् वैयाकरणमते कर्ता व्यापारे अन्वेति अर्थात् कर्ता विशेषणम् व्यापारः विशेष्यम् अत्र तु कृतिः अथवा व्यापारः विशेषणम् कर्ता विशेष्यम् कर्तुः एव प्राधान्यम् प्रथमान्तमुख्यविशेष्यकः शब्दबोधः नैयायिकमते अत्र धातुः अस्ति तिङ् अथवा आख्यातः अस्ति तथैव प्रथमान्तपदमपि अस्ति प्रथमान्तपदं विना शब्दबोधः न सम्भवति नैयायिकमते अस्माकं मते तु केवलं पठति इत्युक्ते तत्रैव सर्वमपि अस्ति किन्तु तेषां मते तथा न भवति अतः धातुः आख्यातः प्रथमान्तपदं सर्वमपि अपेक्षितं फलं व्यापारश्च धातोः अर्थः कृतिः संख्या कालश्च तिङ्प्रत्ययस्य अर्थः कर्ता प्रथमान्तपदा लभ्यते इत्येवम् अत्र कृतिः इति विशिष्टम् मीमांसकमते वा वैयाकरणमते वा नास्ति कृतिः व्यापारभिन्ना कृतिः नास्ति कृतिः इति यदुच्यते तत्तु व्यापारे एव अन्तर्भाव्यते वैयाकरणैः नैयायिकैश्च मीमांसकैश्च किन्तु नैयायिकमते व्यापारः भिन्नः कृतिः भिन्ना कृतिः इत्यनेन चेतनानिष्ठः व्यापारः अथवा कर्तृत्वम् उच्यते इदानीम् एतेषां कथं परस्परसम्बन्धः एतेषु अर्थेषु उपस्थितेषु कर्ता प्रधानम् अर्थात् प्रथमान्तपदस्य यः अर्थः कर्तरि प्रयोगे कर्ता कर्मणि प्रयोगे कर्म तदेव प्रधानम् फलं व्यापारे अन्वेति व्यापारः कृतौ अन्वेति कालः अपि कृतौ अन्वेति कृतिः कर्तरि अन्वेति इत्येवं सम्बन्धः संख्या अपि कर्तरि अन्वेति फलं व्यापारे व्यापारः कृतौ कालः कृतौ कृतिः कर्तरि सो द फैनल् पायिण्ट् इस् कर्ता संख्या अपि कर्तरि अन्वेति इति नैयायिकसिद्धान्ते शब्दबोधः तर्हि कथं चैत्रः पतति कथमर्थः बुध्यते चैत्रः इति प्रधानम् चैत्र इस् द प्रिन्सिपल् बिकास् ही इस् द कर्ता चैत्रः कर्ता कीदृशः चैत्रः एकत्वसङ्ख्यावच्छिन्नः चैत्रः सङ्ख्या कर्तरि अन्वेति पुनश्च कीदृशः चैत्रः वाट् आर् द थिङ्ग्स् यु हेव् वित् द कर्ता संख्या अन्वेति अतः एकत्वसङ्ख्यावच्छिन्नः कैत्रः कृतिमान् कृतिमान् चैत्रः कीदृशी कृतिः व्यापारानुकूलकृतिमान् कश्चित् व्यापारः अस्ति फलमेव विक्लिप्तिः विक्लिप्तिः सर्वदा फलमेव विक्लित्यनुकूलः व्यापारः व्यापारानुकूला कृतिः अतः विक्लित्यनुकूल व्यापारानुकूल कृतिमान् चैत्रः एकत्वसङ्ख्यावच्छिन्नः चैत्रः कीदृशी कृतिः वर्तमानकालिकी कृतिः अतः विक्लित्तिः फलम् विक्लित्यनुकूलः व्यापारः विक्लित्यनुकूलव्यापारानुकूला कृतिः वर्तमानकालिकी कृतिः तत् कृतिमान् चैत्रः अतः विक्लित्यनुकूल व्यापारानुकूल वर्तमानकालिक कृतिमान एकत्व संख्यावच्छिन्नः चैत्रः। चैत्रः कर्ता प्रधानः, कर्तरी संख्या साक्षादन्वेति, अतः एकत्व संख्यावच्छिन्नः चैत्रः। कृतिः अपि साक्षात् कर्तरी अन्वेति, अतः कृतिमान चैत्रः। कृतौ तु द्वयमस्ति, वर्तमानकालिक कृति व्यापारानुकूल कृतिः, अतः व्यापारानुकूल वर्तमानकालिक कृतिः। तच व्यापारः कीदृशः? विक्लित्यनुकूल व्यापारः। विक्लित्यनुकूलः यः व्यापारः तदनुकूल वर्तमानकालिक कृतिः तद्वान् चैत्रः इति शब्दबोधः नैयायिकमते। मतत्रयस्य तुलनां पश्यामः। अत्र कश्चित् प्रश्नः अस्ति, कृतिः नाम कः इति। नैयायिकमते अस्ति कृतिः व्यापारः। सामान्येन यदा व्यापारः इति वयं वदामः तदा एक्शन् इति यदुच्यते स एव व्यापारः इति वैयाकरणानां मते तथा मीमांसकानां मते। किन्तु नैयायिकानां मते एषः व्यापारः अथवा एक्शन् इत्येतद् द्विविधं भवति। एकं तु बाह्यशरीरे यत् स्पन्दादिकं दृश्यते, सो द फिसिकल् मूवमेण्ट्स् दट् यु सी इन् द बाडि, शरीरनिष्ठः, सः व्यापारशब्देन अभिधीयते नैयायिकैः। आत्मनिष्ठः कश्चित् काचित् क्रिया, बट् फार् एनी फिजिकल् मूवमेण्ट् यु रिक्वैर् सम् एक्शन् इन् द सेल्फ् आर् इन् द आत्मन्। अतः आत्मनिष्ठः, आत्मनिष्ठा या क्रिया, सा कृतिशब्देन व्यवह्रियते। सो द डिस्टिङ्क्षन् बिट्वीन् कृति एण्ड् व्यापार इस् सीन् ओन्ली अकार्डिङ्ग् टु द नैयायिकास् एण्ड् नाट् अकार्डिङ्ग् टु व्याकरण और् मीमांसा। So in all other cases, any kind of action is denoted by the term vyapara, which is synonymous to bhavana or kriti or kriya. Everything is the same according to the other schools. But in Nayayikas, they maintain a distinction between sharira nishthaha vyaparaha and chetana nishthaha athava atma nishtha kritihi. Okay. Yani matatrayam api yugapat pashyamaha chet. व्याकरणसिद्धान्तः कः? फलं व्यापारश्च धात्वर्थः। कर्ता कर्म संख्या कालः आख्यातार्थः अथवा तिङर्थः। फलं कालश्च व्यापारे विशेषणम्, संख्या कर्तरि विशेषणम्, कर्ता व्यापारे विशेषणम्। अतः फलं कालः कर्ता इत्येतत् त्रयमपि साक्षात् व्यापारे अन्वेति। विक्लित्यनुकूलः व्यापारः, वर्तमानकालिकः व्यापारः, कर्त्राश्रयः व्यापारः। संख्या तु कर्तरि, एकत्वसंख्यावच्छिन्नः कर्ता, चैत्रः कश्चित् इत्येवं परस्परसम्बन्धः। व्यापारमुख्यविशेषकः शाब्दबोधः। शाब्दबोधे अन्ते किं बुध्यते? व्यापारः एव बुध्यते इति अस्माकं मतम्। मीमांसकानां मते तु फलमात्रं धात्वर्थः, भावना संख्या कालश्च आख्यातार्थः। वैयाकरणैः व्यापारपदेन यदुच्यते तदेव भावना इत्यनेन मीमांसकैः उच्यते। भावना तिङ् प्रत्ययस्य अर्थः, तया सह संख्या कालश्च आख्यातार्थः। कर्ता तु आक्षेपात् लक्षणया वा लभ्यते। फलं कालश्च भावनायां विशेषणम्, संख्या कर्तरि, कर्ता पुनः भावनायाम्। अत्र परस्परसम्बन्धे भेदः नास्त्येव, समानः। भावना मुख्यविशेषकः शाब्दबोधः। अतः फलं विक्लित्यनुकूला भावना, वर्तमानकालिकी भावना, कर्त्राश्रया भावना, स च कर्ता एकत्वसंख्यावच्छिन्नः इत्येवं परस्परसम्बन्धः। नैयायिकानां मते तु फलं व्यापारश्च धात्वर्थः, कृतिः संख्या कालश्च आख्यातार्थः, कर्ता प्रथमान्तपदस्य अर्थः। फलं कालश्च व्यापारे अथवा कृतौ विशेषणम्, वस्तुतः कृतौ कालः कृतौ विशेषणम्, संख्या कर्तरि विशेषणम्, व्यापारः कृतौ विशेषणम्, कृतिः ಕರ್ತರಿ ವಿಶೇಷಣ. ಅತಃ ಕರ್ತೃ ಮುಖ್ಯ ವಿಶೇಷಕ ಅಥವಾ ಪ್ರಥಮಾಂತಾರ್ಥ ಮುಖ್ಯ ವಿಶೇಷಕ ಶಬ್ದಬೋಧ ನೈಯಾಯಿಕಾನ ಮತೆ. ಇತ್ಯೇವಂ ವ್ಯಾಕರಣಸ್ಯ ಮೀಮಾಂಸಾಯಾಃ ನ್ಯಾಯಶ್ಚ ಸಿದ್ಧಾಂತಃ. ಭೂಷಣಸಾರೇ ಕೌಂಡಭಟ್ಟೇನ ಮೀಮಾಂಸಕಾನಾಂ ಮತಂ ತಥಾ ನೈಯಾಯಿಕಾನಾಂ ಮತಂ ವಿಮೃಶ್ಯ ತತ್ರ ಬಾಧಕ ಪ್ರಮಾಣಾನಿ ಪ್ರದರ್ಶ್ಯ ವೈಯಾಕರಣಾನಾಂ ಸಿದ್ಧಾಂತಃ ಪ್ರತಿಪಾದ್ಯತೆ. ಸೊ ವಾಟ್ ಹಿ ವಿಲ್ ಫೈನಲಿ ಟೆಲ್ ಇಸ್ ದಿಸ್ ಕಥಂ ಇತ್ಯೇತತ್ ಅಗ್ರೇ ಗ್ರಂಥೇನ ಜ್ಞಾತವ್ಯಂ. ಎನಿ ಕ್ವೆಶ್ಚನ್ಸ್? ಇದಾನೀಂ ವಸ್ತುತಃ ಗ್ರಂಥಂ ಪ್ರವಿಶಾಮಃ. ಪ್ರತಿಜ್ಞಾತಮಾಹ ಫಲವ್ಯಾಪಾರಯೋರ್ಧಾತುಃ ಆಶ್ರಯೇತು ತಿಂಗಸ್ಮತಾಃ ಫಲೇ ಪ್ರಧಾನಂ ವ್ಯಾಪಾರಃ ತಿಂಗರ್ಥಸ್ತು ವಿಶೇಷಣಂ. ಮೂಲಕಾರಿಕ ಅರ್ಥಾತ್ ಭಟ್ಟೋಜಿ ದೀಕ್ಷಿತೈಃ ವೈಯಾಕರಣ ಮತೋನ್ಮಜ್ಜನ ಗ್ರಂಥೇ ದ್ವಿತೀಯ ಏಷಾ ಕಾರಿಕ. ಅಸ್ಯ ವ್ಯಾಖ್ಯಾನಂ ಕೌಂಡಭಟ್ಟಃ ಭೂಷಣಸಾರೇ ಕರಿಷ್ಯತಿ. A major part of Dhatvartha Prakarana involves the vyakhyana of this karika. So a single karika takes up a majority of this prakarana. Asya artha eva punaha 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 bahubhihi ritibhihi uchyate. Ataha bahu mukhya karika pariksha drishtya avagamana drishtya cha bahu mukhya iyam karika. Pratijnyatam aha. Kim pratijnyatam? ತತ್ರ ನಿರ್ಣೀತ ಏವಾರ್ಥಃ ಫಣಿಭಾಷಿತ ಭಾಷ್ಯಾಬ್ಧೇಹ ಶಬ್ದಕೌಸ್ತುಭ ಉದ್ಧೃತಃ. ತತ್ರ ನಿರ್ಣೀತ ಏವಾರ್ಥಃ ಸಂಕ್ಷೇಪೇಣ ಕಥ್ಯತೆ ಇತಿ ಪ್ರತಿಜ್ಞಾತಂ ಭಟ್ಟೋಜಿ ದೀಕ್ಷಿತೈಃ. ಶಬ್ದಕೌಸ್ತುಭೇ ಪ್ರಕೃತೀನಾಂ ಪ್ರತ್ಯಯಾನಾಂ ಯೇ ಅರ್ಥಾಃ ನಿರ್ಣೀತಾಃ ತೇ ಅರ್ಥಾಃ ಅತ್ರ ಸಂಕ್ಷೇಪೇಣ ಕಥ್ಯಂತೆ. ತತ್ರ ವ್ಯಾಪಾರಸ್ಯ ಅಥವಾ ಕ್ರಿಯಾಯಾಃ ಪ್ರಾಧಾನ್ಯಾತ್ ಆದೌ ತದರ್ಥಃ ಉಚ್ಯತೆ. ಫಲವ್ಯಾಪಾರಯೋಃ ಧಾತುಃ ಆಶ್ರಯೇ ಫಲವ್ಯಾಪಾರಯೋಃ ಧಾತುಃ ಆಶ್ರಯೇ ತು ತಿಂಗಃ ಸ್ಮೃತಃ ಫಲೇ ಪ್ರಧಾನಂ ವ್ಯಾಪಾರಃ ತಿಂಗರ್ಥಃ ತು ವಿಶೇಷಣಂ. ಇತ್ಯನೇನ ಏತಾವದುಕ್ತಃ ಸರ್ವೇ ಸಿದ್ಧಾಂತಃ ತೇನ ಉಕ್ತಃ. ಕಃ ಅರ್ಥಃ? ಧಾತ್ವರ್ಥಃ ಧಾತುಃ ಫಲವ್ಯಾಪಾರಯೋಃ ವಾಚಕಃ ಇತ್ಯರ್ಥಃ. ಅರ್ಥಾತ್ ಧಾತುನಾ ಫಲಂ ಉಚ್ಯತೆ ವ್ಯಾಪಾರಶ್ಚ ಉಚ್ಯತೆ. ಆಶ್ರಯೇತು ತಿಂಗಸ್ಮೃತಃ ತಿಂಗ್ ಪ್ರತ್ಯಯಃ ಆಶ್ರಯೇ. ಕಸ್ಯ ಆಶ್ರಯೇ? ಫಲವ್ಯಾಪಾರಯೋಃ ಆಶ್ರಯೇ. ಫಲಾಶ್ರಯಃ ನಾಮ ಕರ್ಮ. ಸೊ ಸರ್ವದಾ ಫಲಂ ಯದ್ಭವತಿ ತಸ್ಯ ಆಶ್ರಯಃ ಕರ್ಮ. ಯಥಾ ವಿಕ್ಲಿಪ್ತಿಃ ಪಚಧಾತೋಃ ಫಲಂ. ಕುತ್ರ ದೃಶ್ಯತೆ ವಿಕ್ಲಿಪ್ತಿಃ? ತಂಡುಲೇಷು ದೃಶ್ಯತೆ. ಅತಃ ತಂಡುಲಾಃ ಕರ್ಮ. ಕರ್ಮ ನಾಮ ಕಿಂ? ಫಲಾಶ್ರಯಃ ಏವ ಕರ್ಮ. ಸರ್ವೇಷು ಧಾತುಷು ಸಮಾನಂ. ದಟ್ ವಿಚ್ ಹೋಲ್ಡ್ಸ್ ಆರ್ ಇನ್ ವಿಚ್ ವಿ ಸೀ ದ ಫಲ ಇಸ್ ಕರ್ಮ. ಸರ್ವತ್ರ ತದೇವ. ವ್ಯಾಪಾರಾಶ್ರಯಃ ವ್ಯಾಪಾರಃ ಕುತ್ರ ದೃಶ್ಯತೆ? ಪಚ್ ಧಾತೌ ವ್ಯಾಪಾರಃ ಅಸ್ತಿ. ಅಧಿಶ್ರಯಣಂ ಚುಲ್ಯಾಃ ಜ್ವಾಲನಂ ಉದಕಸೇಚನಂ ಏತತ್ ಸರ್ವಂ ಕಃ ಕರೋತಿ? ಪಾಚಕಃ ಕರೋತಿ ಕರ್ತ. ಅತಃ ವ್ಯಾಪಾರಾಶ್ರಯಃ ಕರ್ತ. ಆಶ್ರಯೇತು ತಿಂಗಸ್ಮೃತಃ ಅತಃ ಫಲಾಶ್ರಯಃ ಕರ್ತ ಕರ್ಮ ವ್ಯಾಪಾರಾಶ್ರಯಃ ಕರ್ತ. ಏತತ್ತು ತಿಂಗ್ ಪ್ರತ್ಯಯೇನ ಜ್ಞಾಯತೆ. ತೇನ ಸಹ ಸಂಖ್ಯಾಕಾಲಶ್ಚ ಅಸ್ತಿ ಕಿಂತು ನೋಚ್ಯತೆ ಯತೋ ಹಿ ತತ್ ವಿವಾದಾಸ್ಪದಂ ನ. ಸರ್ವೇಷಾಂ ಮತೇ ಸಂಖ್ಯಾಕಾಲಶ್ಚ ತಿಂಗರ್ಥಃ ಏವ. ಅತಃ ವಿಶಿಷ್ಯ ನೋಚ್ಯತೆ ಕಿಂತು ಸೋಪಿ ತಿಂಗರ್ಥಃ. ಫಲೇ ಪ್ರಧಾನಂ ವ್ಯಾಪಾರಃ. ಯತ್ರ ಫಲಂ ವ್ಯಾಪಾರಃ ಇತ್ಯುಭಯಮಪಿ ಧಾತುನಾ ಬೋಧ್ಯತೆ ತತ್ರಾಪಿ ಫಲಸ್ಯ ಅಪೇಕ್ಷೆಯ ಪ್ರಧಾನಂ ವ್ಯಾಪಾರಃ. ವ್ಯಾಪಾರಸ್ಯೈವ ಪ್ರಾಧಾನ್ಯಂ ಭವತಿ. ತಿಂಗರ್ಥಃ ತು ತಿಂಗಃ ಯೇ ಅರ್ಥಃ ಕರ್ಮ ಕರ್ತ ಇತ್ಯಾದಯಃ ತೇ ಸರ್ವೇಪಿ ವಿಶೇಷಣಾನ್ಯೇವ. ಕರ್ತ ವ್ಯಾಪಾರೇ ವಿಶೇಷಣಂ, ಕರ್ಮ ಫಲೇ ವಿಶೇಷಣಂ, ಸಂಖ್ಯಾ ಕರ್ತರಿ ವಿಶೇಷಣಂ, ಕಾಲಃ ವ್ಯಾಪಾರೇ ವಿಶೇಷಣಂ ಇತಿ ತಿಂಗರ್ಥಾಃ ಸರ್ವೇಪಿ ವಿಶೇಷಣೀಭೂತಾಃ. ಫಲವ್ಯಾಪಾರಯೋರ್ಮಧ್ಯೆ ಅಪಿ ವ್ಯಾಪಾರಸ್ಯೈವ ಪ್ರಾಧಾನ್ಯಂ, ಫಲಂ ತು ವಿಶೇಷಣಂ. अतएव व्यापार मुख्य विशेष्यकः शब्दबोधः वैयाकरण सिद्धान्तः इति कारिकायाः स्थूलः अर्थः। धातुरिति इतः परं भूषणसारस्य पंक्तयः। सो दिस ओरिजिनल कारिका इज फ्रॉम द मतोन्मज्जन ऑफ भट्टोजी दीक्षित। सो नेक्स्ट कौंडभट्ट स्टार्ट्स एक्सप्लेनिंग दिस कारिका। कौंडभट्टः एतां कारिकां व्याख्याति। धातुरिति फलव्यापारयोः धातुः किम्? फलव्यापारयोः धातुः किम्? स्मृतः इति वचन विपरिणामेन अन्वयः। आश्रयेतु तिङ्स्मृताः इत्यत्र बहुवचनमस्ति, अत्र तु धातुः फलव्यापारयोः स्मृतः इति वचन विपरिणामेन अन्वयः। फलव्यापारयोः धातुः स्मृतः, आश्रयेतु तिङ्स्मृताः इति श्लोकस्य अन्वयः। स्मृताः इत्येव उक्तम्, अत्रापि स्मृतः इत्यस्य अन्वयः एकवचने, धातुः इत्येकवचने, अतः एकवचने अस्ति, विपरिणामः कर्तव्यः। फलव्यापारयोः धातुः स्मृतः, आश्रयेतु तिङ्स्मृताः इति श्लोकारिकायाः अन्वयः। स्मृतः इत्यस्य कः अर्थः? वाचकत्वेन स्मृतः, अर्थात् फलस्य व्यापारस्य च वाचकः धातुः। धातु धातुना फलम् उच्यते, व्यापारश्च उच्यते। धातुः फलस्य व्यापारस्य च वाचकः, तिङः आश्रयाणां वाचकाः, आश्रयः नाम फलाश्रयस्य व्यापाराश्रयस्य च वाचकाः तिङ्प्रत्ययाः इति अर्थः। फलं विक्लित्यादि, फलं नाम किम् इत्यस्ति, विक्लित्यादि इति दत्तम्। यतोहि सामान्यतः फलं किम्? इदानीं पाकस्य किं फलम्? भोजनम् अथवा बुभुक्षानिवृत्तिः। वस्तुतः किं निमित्तं वयं पचामः? भोजनार्थम् अथवा बुभुक्षानिवृत्त्यर्थम्। अतः लोके सामान्यतः फलमिदानीं ज्योतिष्ठोम यज्ञं करोति, किं फलम्? स्वर्गप्राप्तिः फलम् इत्येव उच्यते किल। सामान्यतः इदानीं शालां गच्छति, किं फलम्? अध्ययनं फलम् इत्यादिरीत्या लोके फलम् इत्यनेन प्रयोजनम् उच्यते, तस्य कार्यस्य प्रयोजनम्। यस्यार्थस्य प्रसिद्ध्यर्थम् आरभ्यन्ते पचादयः, तत् प्रधानं फलं तेषाम्। यस्य अर्थस्य नाम प्रयोजनस्य साधनार्थं, पचादयः नाम पचति इत्यादि धातवः आरभ्यन्ते, तदेव प्रधानं फलम् इति भर्तृहरीयवाक्यपदीये वदति। यथा पचति इत्यस्य फलं भोजनम् अथवा क्षुन्निवृत्तिः, बुभुक्षानिवृत्तिः एव वस्तुतः प्रयोजनम्। खादति तत्तु साक्षात् बुभुक्षानिवृत्तिरेव फलम्। यजति इत्यस्य स्वर्गप्राप्तिः फलम् इत्यादि लोके व्यवहारः अस्ति, किन्तु तत् फलं धातुना नोच्यते। यतोहि इदानीं पचति इत्यस्ति, यः कोऽपि खादतु न खादतु, पचति इति धातोः अर्थस्तु भवत्येव। पचति इति धातुः यदा प्रयुज्यते तत्र नियमेन भोजनं भवत्येव इति नास्ति। यदि पाकः भोजनार्हः नास्ति तर्हि भोजनं न भवेत्। अतः यद्यपि एतत् प्रयोजनम् इत्युच्यते, नियमेन तस्य धातोः प्रयोगे एतत् सिद्ध्यति इति नास्त्येव। यज्ञं करोति, स्वर्गापेक्षया करोति, स्वर्गं प्राप्नोति वा न वा वक्तुं न शक्यते। एवं खादति, तेन बुभुक्षानिवृत्तिः भवति वा? न भवेत्। यदि पर्याप्तं नास्ति तर्हि बुभुक्षानिवृत्तिः न भवेत्। अतः यद्यपि एतत् लोके फलशब्देन एतादृशाः अर्थाः स्वीक्रियन्ते, तथापि अत्र फलशब्देन तत् न विवक्षितम्, अत एव फलं विक्रित्यादि इत्युच्यते। एतादृशं फलम् अस्मिन् श्लोके फलव्यापारयोः धातुः इत्यत्र न विवक्षितम्। यतोहि पच् इति धातुना न केनापि भोजनं गम्यते। When we say pachati, even though the purpose may be that, you will never think of bhojana, you are only thinking of cooking. And what is the resultant of that cooking? Is the object being cooked, viklitti. So whenever you have pachati, you will definitely have viklitti. If the action of pachati happens, you will definitely get the phala of viklitti, whether it results in bhojana or not. Similarly, yatra gachati ityasti, tatra uttaradesha sanyogaha bhavatyeva. तदेव फलम्। शालां गच्छति, तेन ज्ञानं प्राप्यते अध्ययनं भवति न वा इत्येतत् असम्बद्धम्। उत्तरदेश संयोगस्तु भवत्येव। अतः यत्तु नियमेन तेन धातुना उच्यते तदेव फलम्। अत एव वासकः इत्युक्तम्। साक्षात् तस्मिन् धातौ प्रयुक्ते यस्य नियमेन प्रतीतिः भवति तदेव तस्य फलम्। न हि एतादृशं फलं धात्वर्थः। भोजननिवृत्तिः बुभुक्षानिवृत्तिः भोजनं स्वर्गः इत्यादिकं धात्वर्थः न। तर्हि किम् इति चेत् पारिभाषिकं फलं। व्याकरणशास्त्रे फलं नाम किम्? तद्धात्वर्थविशेषणत्वे सति तद्धात्वर्थत्वम्। तद्धात्वर्थत्वं धात्वर्थं धातुना वाच्य यदुच्यते तदेव फलम्। धातुवाच्यत्वं फलस्य लक्षणम्। किन्तु धातुवाच्यं द्वयमस्ति, फलमस्ति व्यापारः अपि अस्ति। अतः तद्धात्वर्थविशेषणत्वे सति। यत्र फलं व्यापारः इति उभयमस्ति तत्र फलं व्यापारस्य विशेषणम्। अतः धात्वर्थस्य व्यापारस्य विशेषणत्वे सति तद्धात्वर्थत्वं धातुवाच्यत्वं तदेव फलत्वम्। कर्मकृत् प्रत्यय असमभिव्याहारे इत्यस्ति, तदग्रे पश्यामः। यतोहि यत्र कर्मार्थककृत् प्रत्ययाः सन्ति तदा एतल्लक्षणं न युज्यते। सामान्यतः तद्धात्वर्थविशेषणत्वे सति तद्धात्वर्थत्वं फलत्वम्। मीनिङ्ग्, वट् डस् इट् मीन्? इट् मीन्स् दट् सच् अ फल इस् कम्पल्सरिली कन्वेड् बै द धातु, ओके, एण्ड् it is an adjective to something else which is also conveyed by the dhatu. So both these things are required. So whenever we are saying pachati, so there are two things which are compulsorily conveyed. One is the resultant, something being cooked, and the other is the action of cooking. So now when we talk of viklitti or the state of being cooked, it is a dhatvartha, because wherever we use pachidhatu, that meaning is there. The meaning of being cooked is always there. Without it, we cannot use pachati. Okay? So, taddhatvarthatvam. Punaha, taddhatvartha visheshanatvam. It is also visheshana to the other meaning conveyed by the dhatu, which is the vyapara. So, viklityanukulaha, vyaparaha. So, the dhatu does not convey phala as the predominant artha. So, pachi iti dhatu yatra prayujyate, tatra vyaparaha eva pradhanam. The action which results in viklitti. Atah, saeva arthaha bodhyate. Atah, viklitti hi taddhatvarthatve sati, taddhatvartha visheshanatvam api asti. Atah, viklitti hi eva phalam. So, there are different different ways in which it is phrased. Instead of visheshanatva, we can have janyatva. तद्धात्वर्थ जन्यत्वे सति तद्धात्वर्थत्वम्। अर्थात् अधिश्रयणादि व्यापार जन्यत्वे सति पचधात्वर्थत्वम् अस्ति, अतः विक्लिप्तिः। अथवा तद्धात्वर्थ प्रयोज्यत्व। देर् आर् मैन्यूट् डिफरेन्सेस् बिट्वीन् जन्य, प्रयोज्य एण्ड् विशेषण। वि विल् लीव् दट् टु द कामेण्टेटर्स् फोर् नौ। सो दिस् इस् वाट् इस् द फल। अत्र अस्यां कारिकायां फलम् इत्यनेन विक्लित्यादि पारिभाषिकं फलम् उद्दिश्यते। तच्च पारिभाषिकं फलं कीदृशम्? तद्धात्वर्थविशेषणत्वे सति तद्धात्वर्थत्वं फलत्वम्। तादृशमेव फलं धातुना उच्यते। एवं फलव्यापारयोः धातुः वाचकः। फलं विक्लित्यादि। अत्र उदाहरणं विक्लित्तिः। इट् इस् गिवन् एस् द कामन् थिङ्ग् बिकास् इट्स् ईजी टु सी विक्लित्ति रादर् देन् अदर् धातुस्। व्यापारस्तु भावनाभिधा साध्यत्वेन अभिधीयमाना क्रिया। फलम् इत्यस्य फलव्यापारयोः धातुः इत्युक्तं। तत्र फलं नाम किम् इत्युक्तं, व्यापारः नाम कः इति अग्रे वक्ष्यति। अग्रिमकक्ष्यायां पश्यामः। प्रश्नाः सन्ति? एनी क्वेश्चन्स्? अस्तु जि,
नमस्ते जि।
वदतु।
धात्वर्थसम्बन्धे भू धातु अस्ति
अत एव वैयाकरणैः भूधातुः न स्वीक्रियते, पच् धातुमेव वयम् आश्रयामः. भू भवति, जानाति इत्यादयः क्लिष्टाः धातवः. सत्यं, प्रश्ने दोषः नास्ति, बट् वी नेवर् टेक् इफ् यु टेक् एनी व्याकरण टेक्स्ट् दे विल् नाट् टेक् भू आर् ज्ञा एस् द फस्ट् बिकास् इट् इस् अ काम्प्लिकेटेड् धातु. भूधातोः कः अर्थः इति यदि प्रश्नः, सत्तानुकूलः व्यापारः. So satta or existence is the phala, and anything which is required for that existence is called a vyapara. So it is there, I mean both the phala vyapara distinction is still there in bhavati, but it is not as easily perceptible as it is in pachati. That is the reason we take pachati. That's
I know very little about any of these.
No, no, it's okay.
But my mind goes, because in philosophy, that's how we have to start with this most difficult dhatu. Atato brahma jignyasa.
Yes, yes.
Dhatu nitya jignyasa. So jnya dhatu.
Yeah, yeah, jnanarthaka dhatus and sattarthaka dhatus, ichhartaka dhatus, they are all extremely complicated for all philosophies. See, as I said, such discussions, the discussion regarding the meaning of dhatus or this thing, they are not only the purview of Vyakarana. Okay, so they are carried out in all shastras, and all shastras struggle with dhatus which are such, mainly jnana, ichha and satta. So those kind of dhatus are always problematic.
So the karta is very elusive there. That's the problem.
Yes, yes. It is, but
I'm sorry. I no, didn't no. mean to. Because that's, see, all these things.
It is a very valid question, because, I mean, finally we have to go there to understand what is bhavati or janati. It is just, see, even there they do. तत्र कर्ता कथं व्यापाराश्रयत्वात् कर्तृत्वमपि अस्ति, कर्माश्रयत्वात् कर्म फलाश्रयत्वात् कर्मत्वमपि अस्ति. सो दट् इस् वै द धातु इस् अकर्मक, बिकास् बोत् द फल एण्ड् व्यापार आर् इन् द सेम् अधिकरण. सो वेन् ऐ से वृक्षः भवति, द फल इस् सत्ता एक्सिस्टेन्स् एण्ड् द व्यापार विच् इस् रिक्वैर्ड् टु मेक् श्योर् इट् एक्सिस्ट्स् एण्ड् डस् नाट् यु नो wither away or die. So that vyapara, both things are present in the same adhikarana. That is why we call it as akarmaka. That is how we define the difference between sakarmakas and akarmakas. So where this thing is not clear, the difference between phala and vyapara is not clear, so there will be some difficulties. So we will see them later in these texts.
Thank you. Thank you very much.
No problem. अन्यः प्रश्नः अस्ति, द वेदान्तिन्स् जनरली अक्सेप्ट् द मीमांसकास्, इन् दिस् केस् आल्सो डू दे अक्सेप्ट् द मीमांसकास् इन् अण्डर्स्टाण्डिङ्ग् द धातूस् एण्ड् आख्यातास्. वेदान्ते साक्षात् अस्य विचारः नास्ति, ऐ मीन् द वेदान्त डस् नाट् डिरेक्ट्ली डिस्कस् दिस्. ओके, एस् यु हेव् सेड् द वेदान्त इन् सच् मेटर्स् इट् विल् I mean, unless it contradicts, it means it accepts Mimamsa. Okay? So, unless there is a contradiction, so Vedanta is obviously Uttara Mimamsa. So, the Purva Mimamsa, unless it is contradicted, it is treated as accepted. And as far as I know, this Dhatvartha or Akhyatartha is not discussed directly in the Vedanta. I tell you as far as I know, because I am not a scholar of Vedanta. So it's only by my general knowledge, I don't think it has been discussed. So if there is a case where Vedanta has to resort to it, they will probably go by the Mimamsakas, I don't know. But again, Vayakaranas, they call themselves as Vedantins, finally. Vayakaranaha Vedanta Tattvanuyayinaha eva. Ataha Vedanta viruddham Vayakaranairapi nochyate tadapyasti. So I don't think in this matter there is a direct clash between Vedanta to either Mimamsa or Vyakarana. That is my general understanding. I should see if there are any specific instances. Anything else? Oh, Okay, we will stop here. Just before we stop, Prati Vargam, Dhatvartha Prakaranasya Karikaha Ekavaram Pathaniyaha, Adhyaham Pathami, Shrinvantu. भणिभाषितभाष्याब्धेः शब्दकौस्तुभ उद्धृतः तत्र निर्णीत एवार्थः संक्षेपेणेह कथ्यते फलव्यापारयोर्धातुः आश्रयेतु तिङस्मृताः फले प्रधानं व्यापारः तिङर्थस्तु विशेषणम् फलव्यापारयोस्तत्र फले तङ् यक्चिणादयः व्यापारे शप्श्नमाद्यास्तु द्योतयन्त्याश्रयान्वयम् उत्सर्गोऽयं कर्म कर्तृविषयादौ विपर्ययात् तस्माद्यथोचितं ज्ञेयं द्योतकत्वं यथागमम् व्यापारो भावना सैवोत्पादना सैव च क्रिया कृण्यो कर्म कतापत्तेर्न हि यत्नोऽर्थ इष्यते किन्तूत्पादनमेवातः कर्मवत्स्याद्यगाद्यपि कर्मकर्तर्यन्यथा तु न भवेत्तदृशेरिव निर्वर्त्ये च विकार्ये च कर्मवद्भाव इष्यते न तु प्राप्ये कर्मणीति सिद्धान्तोऽत्र व्यवस्थितः तस्मात् करोतिर्धातोऽस्याद्व्याख्यानम् नत्वसौ तिङाम् पक्ववान् कृतवान् पाकम् किं कृतम् पक्वमित्यपि किं कार्यम् पचनीयम् चेत्यादिदृष्टम् हि कृत्स्वपि किञ्च क्रियावाचकताम् विना धातुत्वमेव न सर्वनामाव्ययादीनाम् यावादीनाम् प्रसङ्गतः न हि तत् पाठमात्रेण युक्तमित्याकरे स्फुटम् धात्वर्थत्वम् क्रियात्वम् चेत् धातुत्वम् च क्रियार्थता अन्योन्यसंशयस्पष्टः तस्मादस्तु यथाकरम् अस्त्यादावपि धर्म्यंशे भाव्येऽस्त्येव हि भावना अन्यत्राशेषभावात्तु सा तथा न प्रकाशते फलव्यापारयोरेकनिष्ठतायामकर्मकः धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः आख्यातशब्दे भागाभ्याम् साध्यसाधनरूपता प्रकल्पिता यथा शास्त्रे सघन्यादिष्वपि क्रमः साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना सिद्धभावस्तु यस्तस्याः सघन्यादिनिबन्धनः सम्बोधनान्तम् कृत्वोऽर्थाः कारकम् प्रथमोवतिः धातुसम्बन्धाधिकारनिष्पन्नमसमस्तनञ्ज तथा यस्य च भावेन षष्ठी चेत्युदितम् द्वयम् साधुत्वमष्टकस्यास्य क्रिययैवावधार्यताम् यदि पक्षेऽपि वत्यर्थः कारकञ्चनन्यादिषु अन्वेति त्यज्यताम् तर्हि चतुर्थ्यास्पृहि कल्पना अविग्रहागतादिस्था यथा ग्रामादिकर्मभिः क्रिया सम्बध्यते तद्वत् कृतपूर्व्यादिषु स्थिता कृत्वोऽर्थाः क्त्वा तु मुन्वत्स्युः इति चेत्सन्ति हि क्वचित् अतिप्रसङ्गो नोद्भाव्योऽभिधानस्य समाश्रयात् भेद्यभेदकसम्बन्धोपाधिभेदनिबन्धनम् साधुत्वन्तरभावेऽपि बोधो नेह निवार्यते. सो वसुजी, वाट् यु आस्ट्? अस्त्यादावपि धर्म्यंशे भाव्ये अस्त्येव हि भावना. अस्त्यादावपि, सो सत्तादिषु अपि भावना अस्त्येव इति ग्रन्थे एव अग्रे उच्यते. अस्तु, अत्र yes
are you done with the this one here?
Yes, yes.
Karika pattern?
Yeah, that's it.
Kartru karmano kriti. Mm-hmm. That kriti and this kriti is the same?
No. That kriti is krit pratyayas. So it is krit yoge, krit pratyaya yoge, kartru karmano ho, shashti ityarthaha. This kriti is kritihi, ikarant strihing.
That is kriti.
That is saptami of krit.
Okay, sorry.
श्रीलक्ष्मीरमणम् नौमि गौरीरमणरूपिणम् स्फोटरूपम् यतः सर्वम् जगदेतद्विवर्तते. सो द नेक्स्ट् क्लास् विल् बी आन् थर्स्डे सेम् टैम् 3:30 PM. धन्यवादः.